अमरकोशे मेघस्य नामानि अभ्रं मेघः वारिवाह मेघः वारिवाहः स्तनैत्नुर्वलाहकः इति अपहरात् इत्यभ्रम् इति अन्यः अर्थः अपि प्रोक्तः राधाने इत्यस्माद् धातोः इदं पदं निष्पन्नं अन्यः अर्थः अभ्रति नाम गच्छति इति अभ्रम् अभ्रगतौ इत्यस्माद् धातोः इदं पदं निष्पन्नं एवम् अभ्रशब्दस्य नानार्थाः वर्तन्ते अनन्तरं पदं मेघः मेहति इति मेघः मेहसेचने इत्यस्माद् धातोः इदं पदं निष्पन्नं नाम सिञ्चति मेघः वृष्ट्यातः मेघः इति तत्र पदं सिद्धम् अनन्तरं वारिवाहः वारि जलं वहति इति वारिवाहः वह प्रापणे इत्यस्माद् धातोः इदं पदं निष्पन्नं जलं वहति इत्यर्थः स्तनयित्नुः स्तनयित्नुः कारान्त पुंलिङ्गशब्दः स्तनयति इति स्तनयित्नुः स्तनगदीदेवशब्दे इत्यस्म इति तत्र धातुः नाम भरति इत्यर्थः जलं भरति इति तदेव भरति एव स्तनयति इति अत एव स्तनयितु स्तन इत्नुः इति उच्यते अनन्तरं वलाहकः अथवा बलाहकः इति न बलं न जहाति इति बलाहकः ओहाकत्यागे इत्यस्माद्धातोः इदं पदं निष्पन्नं वभयोरभेदातु वलाहकः इत्यपि यथा बलाहकः तथैव वलाहकः इत्यपि बलं न जहाति इत्यर्थः अनन्तरं धाराधरः जलधाराणां धरः धाराधरः ध्रुयिङ् धरणे इत्यस्माद्धातोः इदं पदं निष्पन्नं जलधाराणां धरः मेघे जलधाराः भवन्ति धाराधरो जलधरः जलस्य धरः जलधरः तटित्वान् वारिदोम्बुभृतु तटित्वान् तटितः अस्य सन्ति इति तटित्वान् तकारान्त पुंलिङ्गशब्दः तटित् नाम वृष्टेः आदौ आकाशे यत् विद्युत् तत्र द्योतते लतारूपेण लता इव तदेव तटित् इति उच्यते इदानीं मेघे एव परिदृश्यन्ते तटितः अतः तटितः अस्य सन्ति इति तटित्वान् मेघस्य नाम वारिदोम्बुभृत् वारिदः वारि जलं ददाति इति वारिदः डुदायिङ्गाने इति धातुः अम्बुभृत् अम्बु जलं बिभर्ति इत्यम्बभृ अम्बुभृत् तकारान्त पुंलिङ्गशब्दः भ्रूयिङ्भरणे इति धातुः अनन्तरश्लोकपादः घनजीमूतमुदिर जलमुग्धोमयोनयः इति